पीतामुत्पलधारिणीं शचिसुतां पीताम्बरालङ्कृतां वामे लम्बकरां महेन्द्रतनयां मन्दारमालाधरां देवैरर्चितपादपद्मयुगलां स्कन्दस्य वामे स्थितां सेनां दिव्यविभूषणां त्रिनयनां देवीं त्रिभङ्गीं भजे।